ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनाधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः हरि ओम्
धन्यवाद भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तशब्दानां परिचयः तत्र पूर्वं वयं हलन्तशब्दानां नपुंसकलिङ्गरूपम् एतावत् न दृष्टवन्तः किन्तु पुल्लिङ्गरूपाणि दृष्टवन्तः अपि स्त्रीलिङ्गरूपाणि अपि दृष्टवन्तः अस्मिन् विषये गतवर्गे तत्र एकं पाठमपि पठितवन्तः अस्मिन् पाठे स्त्रीलिङ्गहलन्तशब्दानां परिचयः भवति अतः तत्र तस्मात् पूर्वं केवलं पुनःस्मरणार्थं तत्र वयं किं कुर्मः तत्र स्वरूपमहोदयस्य करपत्रं यत् अस्ति तत्र हलन्तपदानां विभक्तिरूपाणि दत्तानि सन्ति तस्मिन् करपत्रे तत्र किञ्चित् पुनःस्मरणार्थमपि अभ्यासार्थं तत्र पठामः अस्तु तर्हि तत्र मधुमहोदय नमस्कारः शुभदा भगिनी नमस्कारः भगिनी अस्तु तर्हि तत्र उषा भगिनी तत्र अद्य तु स्त्रीलिङ्गपदानां परिचयः इति कृत्वा तत्र वाचिति पदस्य रूपाणि वदति वा भगिनि उषा अस्तु द्वितीयपुटे अस्ति महोदय नमस्कारः
स्त्रीलिङ्गरूपाणि चकारान्तः वाच् शब्दः वाक् वाग् वाचौ वाचः वाचं वाचौ वाचः वाचा वाग्भ्यां वाग्भिः वाचे वाग्भ्यां वाग्भ्यः वाचः वाग्भ्यां वाग्भ्यः वाचः वाचोः वाचां वाचि वाचोः वाक्षु हे वाक् हे वाग् हे वाचौ हे वाचः इति
समीचीनं भगिनी धन्यवादः अस्तु लक्ष्मी भगिनी नमस्कारः नमस्कारः भगिनी चिन्ता मास्तु भगिनि तत्र इदानीं तत्र स्वरूप महोदयस्य करपत्रे तत्र स्त्रीलिङ्गरूपाणि सन्ति इदानीं तत्र वाच् शब्दः इति पठितम् इदानीम् अग्रे गच्छामः तत्र ललिता भगिनी इदानीं तत्र स्रक् इति स्रज् स्रज् इति पदं जकारान्तपदम् तस्मिन्नेव पुटे किन्तु इदानीम् एतत् कुर्मः भगिनि तत्र भवती तत्र सा स्रक् इति वदतु भगिनि
स्रजौ ताः स्रजः तां स्रजम् ते स्रजौ ताः स्रजः
ताः स्रजः
स्रजः
तया
स्रजा ताभ्यां स्रग्भ्यां ताभिः स्रग्भिः तस्मै स्रजे ताभ्यां स्रग्भ्यां ताभ्यः स्रग्भ्यः तस्याः स्रजः स्रजः ताभ्यां स्रग्भ्यां ताभ्यः स्रग्भ्यः तस्याः स्रजः तयोः स्रजोः तासां स्रजां देन् तस्यां स्रग्भ्यां तस्यां स्रजिः तयोः स्रजोः आसु स्रक्षु
स्रक्षु इति समीचीनं भगिनि बहु समीचीनं धन्यवादः भगिनि अस्तु अग्रे नरेश् महोदय इदानीं तत्र सरित् इति अस्ति तत्र तकारान्तपदम् अतः पुनः तत्र सा सरित् इति
सा सरित् ते सरितौ ताः सरितः
ताम्
ताम् सरिताम्
ताम् सरितम्
सरितम् ते सरितौ ताः सरितः तया सरिता ताभ्यां सरिद्भ्यां ताभिः सरिद्भिः तस्यै सरिते ताभ्यां सरिद्भ्यां ताभ्यः सरिद्भ्यः तस्याः सरितः ताभ्यां सरिद्भ्यां ताभ्यः सरिद्भ्यः तस्याः सरितः तस्योः तयोः सरितोः तासां सरितां तस्यां सरिति तयोः सरितोः तासु सरित्सु
समीचीनं महोदय धन्यवादः अस्तु समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनी तत्र दिश् इति पदस्य रूपाणि पुनः तत्र सा इति उपयुज्य
आं महोदय दिश् सा दिक् अपि सा दिग् ते दिशौ ताः दिशः तां दिशं ते दिशौ ताः दिशः तया दिशा ताभ्यां दिग्भ्यां ताभिः दिग्भिः तस्यै दिशे ताभ्यां दिग्भ्यां ताभ्यः दिग्भ्यः तस्याः दिशः ताभ्यां दिग्भ्यां ताभ्य दिग्भ्यः तस्याः दिशः तयोः दिशोः तासां दिशां तस्यां दिशि तयोः दिशोः तासु दिक्षु
समीचीनं भगिनि धन्यवादः समीचीनं भगिनि अस्तु अग्रे वेदा भगिनी इदानीं तत्र आशिः अतः पुनः सा आशी आशीष् सा आशीः
सा आशीः सा ते ताः सा आशीः ते आशिषौ ताः आशिषः ताम् आशिषं ते आशिषौ ताः आशिषः तृतीया तृतीया तया आशिषा तया ताभ्याम् आशीर्भ्यां
आशीर्भ्यां
ताभिः आशीर्भिः तया तस्यै आशिषे ताभ्याम् आशीर्भ्यां ताभ्यः आशीर्भ्यः तस्याः आशिषः तस्याः आशिषः ताभ्याम् आशीर्भ्यां ताभ्यः आशीर्भ्यः तस्याः आशिषः तयोः आशिषोः तासाम् आशिषां तस्याम् आशिषि तयोः आशिषोः तयोः आशिषोः तासु
आशिषु समीचीनं भगिनि. हा समीचीनं भगिनि, अस्तु.
आशिषु आशिषु,
हा समीचीनं भगिनि, अस्तु. अग्रे मधुमहोदय, तत्र करपत्रमस्ति खलु महोदय भवतः पार्श्वे?
महोदय,
अस्तु. अग्रिम पदं तत्र सकारान्त अप्सरस् इति पदं, तत्र तत्र स सा इति उपयुज्य कर्तुं प्रयत्नं करोति वा किम्?
अस्तु,
अतः सा सा अप्सरा
सा अप्सराः ते अप्सरौ ते अप्सरसौ ताः अप्सरसः ताम् ताम् अप्सरसं ते अप्सरसौ ताः अप्सरसः तया अप्सरसा ताभ्याम् अप्सरेभ्याम् अप्सरोभ्याम् ताभिः अप्सरेभिः
अप्सरोभिः
अस्तु तस्यै अप्सरसे ताभ्याम् अप्सराभ्याम् ताभ्याम् अप्सरोभ्याम् ताभ्यः अप्सरोभ्यः तस्याः अप्सरसः ताभ्याम् अप्सरोभ्याम् ताभ्यः अप्सरोभ्यः तस्याः अप्सरसः ताभ्याम् अप्सरसोः तासाम् अप्सरसाम् तस्याम् अप्सरसि तयोः अप्सरसोः तासु अप्सरसु
अप्सरसु. समीचीनं महोदय, अस्तु समीचीनम्, अस्तु. इदानीं तत्र तदेव तत्र दृष्ट्वा इदानीं शुभदा भगिनी तत्र सरित् पदं दृष्ट्वा तत्र थडित् इति करोति वा? थडित् अनन्तरम् अनन्तरम् अस्तु भगिनि. हा लक्ष्मी भगिनी, तत्र सरित् इति दृष्ट्वा तत्र थडित् इति वदति वा भगिनि?
अस्तु महोदय, सा थडित्
भगिनी तत्र सा इति त्यजतु, केवलं तडित् इति एव, तत्र सरित् दृष्ट्वा तडित् इति वदतु भगिनि. हा
तडित् तडितौ
तडितः
तडितं तडितौ तडितः तडिता तडिभ्यां तडिद्भिः तडिते तडिभ्यां तडिभ्यः तडितः तडित् तडिभ्यां तडिभ्यः तडितः तडितोः तडितां तडिति तडितोः तडित्सु.
हा समीचीनं भगिनि, धन्यवादः, अस्तु. इदानीं तत्र वाच् इति कृतं, सरित् इति कृतम्, अस्तु. तत्र
नमस्ते महोदय, क्षम्यताम्.
हा वंशी भगिनी, वंशी सुधा भगिनी नमस्कारः, श्रीप्रिया भगिनी नमस्कारः.
अद्य शृणोमि महोदय.
अस्तु भगिनि, चिन्ता मास्तु, अस्तु भगिनि. हा अस्तु, तर्हि इदानीं तत्र श्रीप्रिया भगिनी तत्र इदानीं तत्र विद्युत् इति स्त्रीलिङ्गे सरित् वत्तेव सा इति यदि इच्छति स्थापयतु, नो चेत् केवलं तत्र विद्युत् इति पदस्य वदतु भगिनि.
स्थापयित्वा वदामि.
अस्तु भगिनि,
सा विद्युत्, ते विद्युतौ, ताः विद्युतः, तां विद्युतं, ते विद्युतौ, ताः विद्युतः, तया विद्युता, ताभ्यां विद्युद्भ्यां, ताभिः विद्युद्भिः, तस्यै विद्युते, ताभ्यां विद्युद्भ्यां, ताभ्यः विद्युद्भ्यः, तस्याः विद्युतः, ताभ्यां विद्युद्भ्यां, ताभ्यः विद्युद्भ्यः, तस्याः विद्युतः, तयोः विद्युतोः, तासां विद्युतां, तस्यां विद्युति, तयोः विद्युतोः, तासु विद्युत्सु.
हा समीचीनं भगिनि, धन्यवादः,
धन्यवादः,
अस्तु. इदानीं शोभा भगिनी, तत्र पुनः तत्र वाच् इति, किन्तु इदानीम् एषा इति
अस्तु महोदय, वाक् इति वा, वाच् इति
वाच्
एषा अस्तु, एषा वाक् अथवा एषा वाग्, एषा
एषा एते एताः,
एषा एते एताः, एते वाचौ, एताः वाचः, एतां वाचम्, एते वाचौ, एताः वाचः, एतया वाचा, एताभ्यां वाग्भ्याम्, एताभिः वाग्भिः, एतस्यै वाचे, एताभ्यां वाग्भ्याम्, एताभ्यः वाग्भ्यः, अपि च
एतस्याः
एतस्याः वाचः, एताभ्यां वाग्भ्याम्, एताभ्यः वाग्भ्यः, तस्याः एतस्याः वाचः, एतयोः वाचोः, एतासां वाचाम्, अपि तस्याम् एतस्यां वाचि, एतयोः वाचोः, तासु एतासु वाक्षु.
हा समीचीनं भगिनि, अस्तु. किञ्चित् एषः एषः इति आसीत् किन्तु सम्यक् अस्तु. सुजाता भगिनी भवती अपि कर्तुम् इच्छति वा तत्र स्वरूपमहोदयस्य करपत्रम् अस्ति वा भगिनि? अस्तु भगिनि. अतः तत्र किं तत्र सरित् इति अस्ति, तत्र पुनः तत्र एषा सरित् इति वदति वा एकवारं?
प्रयत्नं करोमि.
अथवा सा सरित् इति, नो चेत् केवलं, अथवा एतत् करोतु भगिनि. अस्तु, तत्र सरित् इति स्थाने सरित् तत्र कोष्टके तत्र सरित् रूपाणि दृष्ट्वा तडित् इति पदस्य रूपाणि वदतु भगिनि एकवारं. तडित् इति तडितमि नकारान्तपदम्.
तडितौ तडितः, तडितं तडितौ तडितः, तडिता तडिभ्यां तडिभिः, तडित्ते तडिभ्यां तडिभ्यः, तडितः तडिभ्यां तडिभ्यः, तडितः तडितोः तडितां, तडिति तडितोः तडि तडित्सु.
हा समीचीनं भगिनि, तावदेव. अस्तु समीचीनं. अस्तु, सर्वे उक्तवन्तः इति मन्ये अद्य. अस्तु तर्हि, अतः तत्र पुनस्मरणम् अभ्यासं सर्वं कृतं. तत्र केवलम् एकवारं उक्तवती अथवा उक्तवान् इति मा चिन्तयतु, तत्र बहुवारं श्रुतवती अथवा श्रुतवान् अस्ति अपि खलु, अतः मनसि रूपं स्थापितं भवति. अस्तु तर्हि इदानीं तत्र अग्रे गच्छामः. तत्र पुटसङ्ख्या अस्ति 13, तत्र पाठः अस्ति तत्र हलन्तस्त्रीलिङ्गनपुंसकलिङ्गशब्दानां परिचयः. गतवर्गे किञ्चित् एकवारं पठितवन्तः, इदानीं तत्र पङ्क्तिशः पश्यामः. अतः तत्र अस्तु, श्रीप्रिया भगिनी आरम्भं करोति वा तत्र?
आम् महोदय, प्रथमतः वा यत्र स्थगितवन्तः ततः वा महोदय?
तत्र सर्वं, हा अस्तु, तत्र यावत् पर्यन्तं दृष्टवन्तः भगिनि तत्र?
वियति तडितः प्रकाशन्ते
ओ इति तावत्. अस्तु भगिनि, अतः एतत्
इति मन्ये महोदय.
सत्यं सत्यं भगिनि सत्यं, किन्तु तत्र पुनः एकवारं तत्र किं कुर्मः, तत्र भवति तत्र मनांसि सहृशानि भवन्ति इति, तत्र तत्र वाक्यद्वयं वाक्यत्रयं स्वीकृत्य एकवारं पठित्वा किञ्चित् विवृणोतु.
क्षम्यता महोदय, पुटसङ्ख्या
13.
आम्
अहं वर्षं निगृह्णामि हलन्तस्त्रीलिङ्ग नपुंसकलिङ्गशब्दाः प्रथमा विभक्तिः एतं पाठम् उच्चैः पठत अवगच्छत च ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति कथं
तत्र केवलं तत्र ग्रीष्मकालः इति जानीमः तस्य अनन्तरं वर्षाकालः ग्रीष्म ऋतुः तदनन्तरं
वर्षऋतुः आगच्छति आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति वर्षऋतुः यदा अस्ति तदा आकाशे सूर्यम् आवृत्य मेघाः
तत्र हा इतस्ततः इतः गच्छन्ति ततः गच्छन्ति इतस्ततः गच्छन्ति एकस्मिन् स्थले न तिष्ठन्ति तत्र न तिष्ठन्ति किन्तु तत्र सर्वदा तत्र किं भवति तत्र अथवा सर्वदा इति न किन्तु आधिक्येन तत्र सूर्यं न दृश्यते यतोहि ते सूर्यं मेघमालैः आच्छाद्यः आच्छाद्यं तत्र सूर्यः तत्र आच्छाद्य सूर्यम् आच्छाद्य सूर्यः मेघमालै मेघमाला अस्तु मेघमालाभिः मेघमालाभिः आच्छाद्यः भवति
अग्रे पठामि
तत्र तदा कृषकाणां
मनांसि सम्भृष्टानि भवन्ति यदा वर्षा ऋतुः आगच्छति वृष्टिः भवति तदा कृषकाः सन्तुष्टाः भवन्ति
तेषां मनः इति पदं तत्र मनः मनसि
मनांसि मनः नपुंसकलिङ्गपदं
अतः तत्र एतावत् वयं तत्र वनं वने वनानि दृष्टवन्तः अपि हलन्तपदानां तत्र तत्र किं तत्र सरित् सरितौ सरितः इति दृष्टवन्तः किन्तु इदानीं तत्र नपुंसकलिङ्गरूपं हलन्तपदं तस्य रूपं भिन्नम् इति ज्ञातुं शक्नुमः तत्र सरित् अस्ति चेत् सरित् सरितौ सरितः सुहृद् अस्ति चेत् सुहृत् सुहृदौ सुहृदः तत्र सुहृत् पुल्लिङ्गहलन्तपदम् अस्ति सरित् स्त्रीलिङ्गहलन्तपदम् अस्ति किन्तु भेदः न दृश्यते किन्तु नपुंसकलिङ्ग पदमस्ति चेत् तत्र ज्ञातुं शक्नुमः हलन्तनपुंसकलिङ्गपदमस्ति एतद् इति यतोहि तत्र रूपभेदः अस्ति मनः मनसि मनांसि इति अस्ति अतः नपुंसकलिङ्गपदम् इति ज्ञातुं शक्नुमः समीचीनं भगिनि अस्तु अग्रे तत्र धन्यवादः भगिनि अस्तु अग्रे तत्र ललिता भगिनी अग्रे किञ्चित् विवृणोति वा
वदामि यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति यदा वृष्टिः इति स्त्रीलिङ्गपदमस्ति प्रथमविभक्ति शब्दवत् तदा भगवतः आशिषः भगवतः आशिष इत्युक्ते भगवत् शब्दस्य षष्टिविभक्ति अस्ति आशिषः षष्टिविभक्ति
आशिषः इति षष्टिविभक्ति किमर्थं
न न न न आशिषः भगवतः आशिषः
षष्ठी अपि समीचीनमेव
आशिषः इव
तत्र भगिनी भवत्या यदुक्तं सत्यमेव आशिषः इति पदं दृष्ट्वा तत्र षष्ठी इति वक्तुं शक्नुमः अन्यत् किं वक्तुं शक्नुमः तत्र
एकवचने अस्ति
अपि पञ्चमी अपि अस्ति खलु
पञ्चमी अपि अस्ति
खलु
अत्र पञ्चमी नास्ति अत्र षष्टिविभक्ति अस्ति
अत्र षष्टि इति अस्तु किन्तु तत्र रूपं दृष्ट्वा तत्र विकल्पत्रयम् अस्ति खलु
तत्र
बहुवचनं
द्वितीय प्रथमाविभक्ति बहुवचने अपि अस्ति द्वितीया विभक्ति
द्वितीया विभक्ति बहुवचनमपि अस्ति नो चेत् पञ्चमी वा षष्ठी वा एकवचनम् अतः तत्र विकल्प किं चतुष्टयम् अस्ति किन्तु किन्तु तत्र अग्रे पश्यामः तत्र वाक्ये किं
जलबिन्दवः बहुवचने अस्ति प्रथमा विभक्ति बहुवचने अस्ति भुवि सप्तमी विभक्ति अस्ति
निपतन्ति निपतन्ति इति अस्ति खलु निपतन्ति इति क्रिया
बहुवचने
तत्र जलबिन्दवः भुवि निपतन्ति तत्र बहुवचने एकवचने एकवचने करोतु तत् किं भवति
जलबिन्दु जल
जलबिन्दु जलबिन्दु
गुरौ गुरु जलबिन्दु जलबिन्दु
एकवचने जलबिन्दु जलबिन्दु
एकवचने जलबिन्दु
किन्तु तत्र एकवचने तत् वाक्यखण्डं वदतु जलबिन्दवः भुवि निपतन्ति निपतति किं निपतति अथवा कः निपतति
भुवि
किन्तु जलबिन्दुः
जलबिन्दुः भुवि निपतति
निपतति जलबिन्दुः भुवि निपतति
जलबिन्दुः
विभक्ति का का भवति
भूमि
किन्तु भुवि इति विभक्ति का तत्र
सप्तमी विभक्ति एकवचन
सप्तमी भू भू इति उकारन्त स्त्रीलिङ्गपदं भू भुवौ भुवः इति तत्र भुवाम् इति अपि अस्ति एकं रूपम् अपि भुवि इति अपि एकं रूपम् अस्तु अतः भुवि भुवि निपतन्ति जलबिन्दवः निपतन्ति इव इति अस्ति तत्र जलबिन्दवः कीदृशः सन्ति कीदृशः सन्ति कीदृशाः सन्ति भगवतः
भगवतः
आशिष इव सन्ति आशिष इव के सन्ति जलबिन्दवः
जलबिन्दवः सन्ति
तत्र जलबिन्दवः सन्ति अस्तु तत्र प्रायशः तत्र जलबिन्दवः भगवतः आशिषः तत्र आशिषः इति आशिष शकारान्त
शकारान्त स्त्रीलिङ्गपदम्
सकारान्त स्त्रीलिङ्गपदम् बिन्दवः समीचीनम् आशीः आशिष आशिषः भगवतः आशीः इव जलबिन्दुः भुवि निपतति खलु एकवचने यदि एकवचने वक्तुम् इच्छामः तत्र भगवतः
आशीः
इव
आशीः इव
जलबिन्दुः
जलबिन्दुः भुवि
निपतति इति समीचीनं भगिनि अस्तु अग्रिमवाक्यमपि तत्र पीयति इति
पीयति तदितः प्रकाशन्ते
तत्र वियत् इति किमस्ति वियत्
वियत् आकाशः इति
आकाशः आकाशः इदानीं तत्र तत् पदम् अस्ति तत्र वियत् नपुंसकलिङ्गपदम् अग्रिमे पुटे दत्तम् अस्ति वियत् वियति वियन्ति वियत् वियति वियन्ति इदानीं तत्र अग्रे तत्र पाठस्य अनन्तरं तत्र नपुंसकलिङ्गपदानाम् अभ्यासः कुर्मः अभ्यासं कुर्मः किन्तु स्त्रीलिङ्गपदानां पूर्वं कृतवन्तः अतः तत्र वियत् वियति वियन्ति किन्तु अत्र वियति इति अस्ति तत्र
वियति तदितः प्रकाशन्ति वियति इति सप्तमी विभक्ति एकवचने अस्ति तडितः
तडित् शब्दः सरितिव स्त्रीलिङ्गपदं
प्रकाशन्ति बहुवचने अस्ति तडितः प्रकाशन्ते
प्रकाशन्ते
क्रियापदम् अस्ति
अस्तु
विद्युत्
तत्र किं प्रकाशन्ति अथवा किम् इति न तत्र तत्र प्रश्नः कः भवति प्रकाशः तडितः प्रकाशन्ते तडितः इति उत्तरम् अस्ति अतः प्रकाशन्ते
काः
काः प्रकाशन्ते प्रकाशन्ते. समीचीनं भगिनि, अस्तु धन्यवादः.
कस्मिन् प्रकाशन्ते?
बियत् इत्युक्ते आकाशः, आकाशे तडितः, तडित् इत्युक्ते लैट्निङ्ग्. कस्मिन् 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 एव बियत् इति
नपुंसकलिङ्गे.
कस्मिन् काः प्रकाशन्ते? बियति तडितः प्रकाशन्ते. आकाशः
पक्षी अपि अस्ति
न? न न वियत् अत्र तु आकाशः,
अत्र आकाशः.
हा, तत्र पक्षी न भवितुम् अर्हति खलु, तडितः प्रकाशन्ते.
अत्र न भवितुम् अर्हति.
तत्र अन्य अर्थः इति न जानामि, किन्तु खगः इति, तत्तु खगः सत्यं. अत्र आकाशः, किन्तु आकाशः पुल्लिङ्गपदम्, अत्र बियत् इति नपुंसकलिङ्गपदम्. बियत् बियती बियन्ति, तत्र द्विवचने वियती इति अस्ति, तत्र दीर्घ ईकारः सप्तमविभक्तौ वियती ह्रस्व ईकारः.
अत्र प्रथमाविभक्ति बहुवचन वियन्ति अस्ति वा? वियन्ति दीर्घ
न वियन्ति न न वियन्ति ह्रस्व ईकारः एव. जगत् जगति जगन्ति, तत्र द्विवचने दीर्घः अस्ति, बहुवचने ह्रस्वः. तत्र करपत्रे अस्ति पश्यतु भगिनि, तत्र जगत् जगति जगन्ति, तावदेव वियत् वियति वियन्ति. समीचीनम्, अस्तु. अग्रे तत्र नरेश महोदय अग्रे पठति वा किञ्चित्, तत्र वाक्यद्वयं वा त्रयं. मेघाः इदानीं
मेघाः नितरां गर्जन्ति. मेघाः बहुवचनं अस्ति, नितरां गर्जन्ति पुल्लिङ्ग बहुवचनं. दिक्षु विदिक्षु उत्पन्नं प्रकम्पनं अनुभवै कदं कवेद्यं भवति. दिक्षु दिक्षु विदिक्षु सप्तमी बहुवचनम्.
हा, दिक्षु इदानीमेव दृष्टवन्तः खलु, तत्र प्रातिपदिकं किम् अस्ति?
दिक्.
हा, प्रथमाविभक्तिरूपं दिक् अथवा दिक्, प्रातिपदिकम् अस्ति दिश्, शकारान्तपदं. हा, दिश्, दिक् दिशौ दिशः. तत्र वयं जानीमः खलु, तत्र प्रथमाविभक्ति बहुवचनरूपं दृष्ट्वा एव तत्र अन्तिमवर्णः, अतः दिशः शकारान्तपदम्. दिक्षु इति समीचीनं, सप्तमी एकवचनं. विदिक्षु, तत्र प्रातिपदिकं किम् अस्ति? विदिक्षु अस्ति चेत्
विदिश्
विदिश् तावदेव. हा, दिक्षु विदिक्षु, तत्र अस्यां दिक्षु, अन्यत् अन्यत् अस्ति तत्र दिक्, तस्यामपि तत्र विदिक्षु. तत्र उत्पन्नं उत्पन्नं किम् उत्पन्नं?
प्रकम्पन प्रकम्पनं.
हा, प्रकम्पनं प्रकम्पनं प्रकम्पनं. तत्र प्रकम्पनम् इत्युक्ते तत्र किम्?
प्रकम्पनं कम्पनं कम्पते.
हा, अस्तु, किन्तु प्रकम्पनम् इति यदस्ति, भवान् किमर्थं तस्य विवरणं न कर्तुं शक्नोति इत्युक्ते, अग्रिमपदं तद् वदति, अनुभवैक्यवेद्यम्
अनुभवै वेद्यम्
इत्युक्ते अनुभवैक वेद्यम् इत्युक्ते किम्?
अनुभवति
न न अनुभवेन तत्र अनुभवैकवेद्यं. तत्र प्रकम्पनम् इत्युक्ते तत्र कम्पनं भवति, बहु कम्पनं भवति, तत्र शब्दः अस्ति, तत्र तडितः प्रकाशन्ते, मेघाः गर्जन्ति, तत्र बहु किमपि भवति तस्मिन् समये. अतः तत्र केवलम् अस्यां दिक्षु शब्दः भवति इति न, किन्तु तत्र सर्वासु दिक्षु, क्षम्यतां, तत्र केवलं तस्यां दिशि तत्र शब्दः भवति इति न, तत्र सर्वासु दिक्षु शब्दः भवति, शब्दः आगच्छति. अतः तत्र प्रकम्पनम् अस्ति, वायुः वायोः प्रकम्पनं सर्वम् अस्ति. तत्र विवरणं कर्तुं न शक्नुमः तत्र कीदृशः तदस्ति इति. किमर्थम् इत्युक्ते तत्र अग्रे अस्ति कीदृशं प्रकम्पनं, तत्र उत्पन्नं प्रकम्पनं विशेषणम् अस्ति, अन्यत् विशेषणम् अस्ति अनुभवैकवेद्यम्. अनुभवः इत्युक्ते यद् अनुभवामः, तत्र केवलं तत्र श्रुत्वा तत्र किमपि न भवति, तत्र तस्मिन् स्थले यदि भवामः तदा एव तत्र अनुभवः भवति. अनुभव तदनन्तरं तत्र भागत्रयमस्ति अस्मिन् पदे, तत्र अनुभवः इति एकः, द्वितीयं किम्? वेद्यं. वेद्यम् इत्युक्ते तत्र विद् धातुः, तत्र विद् ज्ञातुम्. अत्र कीदृशप्रकम्पनम् इत्युक्ते केवलम् अनुभवमात्रेण ज्ञातुं शक्नुमः. तत्र केवलं तत्र शब्देन तस्य विवरणं कर्तुं तत्र न शक्नुमः, तत्र अनुभवैकभेद्यम् अथवा तत्र भेद्यं तत्र ज्ञातुं योग्यः तदपि भवितुम् अर्हति, किन्तु तत्र प्रायशः अत्र तेन अनुभवेन एव तत्र कीदृशप्रकम्पनम् इति ज्ञातुं शक्नुमः. अस्तु, अग्रे.
तदा मयूराः केकारवं कुर्वन्तः मुदा नृत्यन्ति.
तत्र केकारः,
केकारः, केकारवं,
तत्र केकारवं कुर्वन्तः, तत्र शब्दः, ते तेषां शब्दः, तत्र मयूराः तत्र यत् यं शब्दं कुर्वन्ति, तत्र मयूरः, तत्र केकारवं, केकारं कुर्वन्तः. कुर्वन्तः इति रूपं कीदृशं? तत्र मयूराः कुर्वन्तः मुदा नृत्यन्ति. इदानीं तत्र एकवचने किं भवति?
मयूरः कुर्वन् केकारवं, केकारवं कुर्वन् मुदा नृत्यति.
मुदा नृत्यति, समीचीनं. तत्र मुदा इति, मुदा इत्युक्ते सन्तोषेन इति. तत्र मुदा इति तत्र श्लोकेषु बहुत्र भवति खलु, तत्र मुदा इति पदम्, अतः तत्र प्रसिद्धपदम् इति मन्ये, तत्र मुदा इति. तत्र मुदा सन्तोषं, सन्तोषकरं, सन्तोषजनकं, मुदा अथवा अत्र तत्र सन्तोषेन नृत्यति इति.
क्षम्यतां, तु मुदा तृतीया विभक्ति अस्ति वा तत्र? मुदा,
तत्र मुदा इति न
मुदा नृत्यन्ति सन्तोषेण इत्युक्ते
सन्तोषेण मुदा. मुदा इति तत्र कीदृशपदम् अस्ति मुदा इति?
मुद् मुद् शब्द
मुद् धातु, मुद् धातु,
मुदौ मुदः अस्ति वा? मुदः,
मुद् धातु अस्ति चेत् तत्र किं भवति?
मुदः षष्टिविभक्ति,
मुदः इति भवति. समीचीनं. अपि वयं दृष्टवन्तः, समीचीनप्रश्नः भगिनी. वयं तत्र पूर्वमपि चर्चितवन्तः खलु, तत्र भवच्छब्दस्य तृतीया विभक्तितः सप्तमीविभक्तिपर्यन्तम् एकवचने किं भवति? भवता, भवते, भवतः, भवतः, भवति. हा, इदानीम् उत् इति अस्ति चेत् किं किं भवति? मुदा,
मुदा,
मुदे,
मुदे, मुदा,
मुदः, मुदः,
मुदः, मुदः, मुदि,
मुदि. हा, समीचीनम्.
धन्यवादः.
समीचीनं भगिनि. मुधा नृत्यन्ति, सन्तोषेण नृत्यन्ति.
क्षम्यतां महोदय, स्त्रीलिङ्गपदं वा पुल्लिङ्गपदं वा महोदय?
तत्र सर्वदा क्लेशः अस्ति भगिनि, तत्र हलन्तपदानाम् एषः एव क्लेशः. हा, तत्र द्रष्टव्यमस्ति भगिनि. हा,
रमाशब्दवत् अस्ति महोदय.
रमाशब्दवत् अस्ति वा तत्र? मुधा,
मुदा इति एव,
मुदा इति एव अस्ति. अस्तु, 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 अस्तु. अतः तत्र हलन्तपदं, किन्तु तत्र किमर्थं तत्र स्थूलक्षरैः दत्तमस्ति? मुधा, हा, मुधा, अस्तु, अस्तु भगिनि. हा, अस्तु, तत्र
तदपि अस्ति, मुद् अपि अस्ति महोदय. मुदौ, मुदः, पदद्वयं.
हा, अतः रूपद्वयम् अस्ति. अतः
मुद् अस्ति, मुदा अपि अस्ति. मुद् इति स्त्रीलिङ्गपदं, सरित्वत् सरित्वत्.
हा, अतः हलन्तपदम्. अत्र हलन्तपदमेव स्वीकरणीयम् अस्ति. हा, यतोहि स्थूलक्षरैः अस्ति. हा,
स्त्रीलिङ्गं,
स्त्रीलिङ्गं, स्त्रीलिङ्गमेव, स्त्रीलिङ्गमेव इति. हा, मुद् इति स्त्रीलिङ्गं खलु भगिनि, वंशीसुधा भगिनि?
स्त्रीलिङ्गमेव, तत्र तृतीया विभक्ति अस्ति. मुदा नृत्यन्ति, तत्र तृतीया विभक्तौ.
हा, 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 तत्र
हियरिङ्ग् बन्दले.
आम्, आं महोदय.
वैले, वैले
महोदय, प्रातिपदिकं मुत् वा मुद् वा, दकार वा तकार वा?
तत्र मुदः इति अस्ति चेत् तत्र बहुवचनरूपं दृष्ट्वा मुदः इति अस्ति भगिनि, अतः दकारान्त एव खलु.
ओ, सरित्वत् अस्ति किन्तु दकारान्त अस्ति.
सत्यं. तत्र सुहृद्वा
मोदेन अपि वक्तुं शक्यते महोदय.
अस्तु, किन्तु एतत् नामपदम् अस्ति, नामपदम्
महोदय. तत्र सरित् वत् मुत् अपि अस्ति, मुद् अपि, द्वे रूपद्वयम् अस्ति.
अस्तु, अस्तु, समीचीनं. हा, समीचीनम्. अतः तत्र इदानीं तत्र वयमपि मुधा चर्चां कुर्मः खलु. हा, समीचीनम्. अस्तु, हा, तत्र मयूराः मुदा नृत्यन्ति, वयमपि मुदा तत्र रूपाणि पश्यन्तः स्मः. समीचीनम्. हा, अस्तु तर्हि. तत्र किन्तु तत्र, हा, तत्र मुदा इति स्त्रीलिङ्गे इति रूपं, तत्र मम मनसि क्लेशः आसीत् तत्र स्थूलक्षरैः अस्ति, अतः तत्र स्त्रीलिङ्ग वा नपुंसकलिङ्ग वा इति. अपि तत्र रूपभेदः कुत्र भवति इत्युक्ते, तत्र पुल्लिङ्ग वा स्त्रीलिङ्ग वा हलन्तपदानां
पुल्लिङ्ग अस्ति, मयूरः,
मयूरः पुल्लिङ्गः अस्ति, सत्यं. किन्तु तत्र किमर्थम्? एकनिमिष, एकनिमिष, किन्तु एकनिमिष भगिनि, तत्र प्रथमतया तत्र हलन्तपदानाम् एषः विषयः अस्ति. तत्र हलन्त पदेषु तत्र लिङ्गनिर्णयः दुष्करः, यतोहि तत्र रूपसामान्यम् अस्ति. केवलं तत्र नपुंसकलिङ्गे तत्र भेदः अस्ति, किन्तु नपुंसकलिङ्गे अपि तत्र केवलं प्रथमाविभक्तमेव तत्र रूपभेदः अस्ति. तत्र यथा तत्र वनं पदस्य वनं वने वनानि, वनं वने वनानि, किन्तु तदनन्तरं अकारान्तपुल्लिङ्गदेवशब्दवत् एव भवति खलु, वनेन, देवेन. अतः अत्र केवलं प्रथमा द्वितीयविभक्तौ रूपभेदः अस्ति, किन्तु एतत्तु मुदा इति तृतीया विभक्ति इति चिन्तयामः, अतः तत्र नपुंसकलिङ्गः वा स्त्रीलिङ्गः वा न ज्ञातुं शक्नुमः, किन्तु मुदा इति स्त्रीलिङ्गम् इति इदानीं स्थापितमस्ति. ललिता भगिनी, इदानीं तत्र किमर्थं तत्र मयूराः इति अस्ति, मयूराः पुल्लिङ्गपदं, किन्तु तस्मात् किमर्थं मुदा इति पुल्लिङ्गमेव भवति? अतः तत्र यदि विशेषणमासीत् चेत् तत्र, किन्तु तत्र केवलं भावः, भावतृतीय अत्र, येन भावेन नृत्यन्ति मुधा नृत्यन्ति. अस्तु, समीचीनम्. अस्तु, अग्रे तत्र नरेश महोदय पठितवान्. अस्तु, अग्रे गीताञ्जलिभगिनी अग्रे पठति वा?
आं महोदय.
सरितः,
सरितः सरांसि च नवाम्भसा पूर्णानि भवन्ति. सरितः, सरितः तु
न न, एकनिमिषं भगिनि, तत्र क्रियापदं किम् इति वदतु प्रथमतया.
भवन्ति सरांसि भवन्ति.
अस्तु अस्तु, प्रथमतया सरांसि भवन्ति इति एव स्वीकुर्मः, सरांसि भवन्ति. अस्तु, सरस् सरसि, तत्र सरस् सरसि सरांसि, मनः मनसि मनांसि
मनांसि. अधुना सरांसि भवन्ति.
तत्र सरित् इति एकमस्ति, सरस् इति, सरः इति एकमस्ति, भेदः कः कोऽपि वक्तुं शक्नोति वा? द्वयमपि तत्र जल जलराशिः एव.
सरति अस्ति न महोदय, सरित् नदी फ्लोस्.
सरित् इत्युक्ते, सरित् इत्युक्ते नदी, सरस् इत्युक्ते लेक् इति
सरोवरः. सरः
सरोवरः अपि च सरोवर पूर्णानि भवन्ति.
हा हा, अस्तु. गीता गीताञ्जलि भगिनी, इदानीं तत्र पूर्णानि, पूर्णानि इति अस्ति, कानि पूर्णानि भवन्ति?
सरितः
न, सरांसि पूर्णानि भवन्ति, यतोहि तत्र सरस् सरः सरसि सरांसि खलु. तत्र सरः इति पदं, तस्य वचनं, तस्य लिङ्गं किं? सरः सरसि सरांसि,
नपुंसकलिङ्गं,
नपुंसकलिङ्गपदं. हा, अतः सरांसि भवन्ति पूर्णानि. पूर्णानि इति तत्र तस्य पदस्य लिङ्गं किं?
पूर्णानि अपि नपुंसकलिङ्गं.
हा, वनं वनं पदं, अकारान्तपदम्.
उत्तमं महोदय. सरांसि पूर्णानि भवन्ति.
इदानीं सरितः इति अपि तत्र स्थापयतु, सरितः
च अस्ति, सरितः
सरांसि च.
सरितः अपि प्रथमा बहुवचनरूपम् अस्ति.
सरितः अपि भवन्ति, सरांसि अपि भवन्ति, तत्र तत्र पूर्णानि भवन्ति, पूर्णानि भवन्ति,
अपि पूर्णानि भवन्ति.
इदानीं तत्र केन अथवा कया पूर्णानि भवन्ति इत्युक्ते?
कया पूर्णानि भवन्ति? नव अम्भसा. नव अम्भ, अम्भ अम्भसा इति तृतीय अम्भसा इत्युक्ते अम्भस्
इति तत्र अम्भस् इति अपि पुनः नपुंसकलिङ्गपदं,
सकारान्त,
सकारान्त, मनः मनसि मनांसि, अम्ब अम्बसि अम्बांसि इत्युक्ते जलम्,
जलम् इत्युक्ते
नवजलम्, नवजलम्.
नवजलं, नव अम्बजले.
अम्बसा इति विभक्ति का अत्र? तत्र
अम्बसा तु तृतीय.
अतः नवजलेन,
नवजलेन पूर्णानि भवन्ति.
इदानीं वृष्टिः अभवत् खलु तत्र.
वृष्टिः अभवत्, नवजलं,
नवजलम् अपि अस्ति. अतः नवजलेन अथवा नवाम्बसा पूर्णानि
पूर्णानि भवन्ति
भवन्ति. तत्र नवाम्बसा तृतीयविभक्ति, पूर्णानि भवन्ति प्रथमविभक्ति बहुवचनं. तत्र
महोदय यदि यदि विपरीतक्रम अस्ति चेत्
सः एव इदानीं मम प्रश्नः आसीत्, वदतु भगिनि. समीचीनं. हा, इदानीं सरांसि सरितः च नवाम्बसा,
सरितः च नवाम्बसा पूर्णाः.
हा, समीचीनं समीचीनं भगिनि. तत्र सरित् पूर्णा, सरितौ किं भवति?
पूर्णौ
नो न पूर्णे लता लते लताः पूर्णे पूर्णाः
सरितः सरितः पूर्णाः.
हा, इति भवति. तत्र सरांसि सरितः च नवाम्बसा पूर्णाः भवन्ति. तत्र विशेषणं किं भवति? तत्र विशेषणम् इति अस्ति, किन्तु तत्र अन्तिमपदस्य यत्र लिङ्गसामान्यं नास्ति, तत्र समूह चकारः अस्ति, तस्य पूर्वं तत्र यानि पदानि सन्ति तेषां लिङ्गं समानं नास्ति चेत्, तत्र लिङ्गसामान्यं नास्ति चेत् तत्र किं कुर्मः? अन्तिमपदस्य लिङ्गम् उपयुज्य विशेषणस्य रूपं कुर्मः. अतः यथा भवती उक्तवती, तत्र यदि तत्र सरांसि इति प्रथमतया वदामः, सरांसि सरितः च नवाम्बसा पूर्णाः भवन्ति, किन्तु तत्र सरांसि इति अन्ते अस्ति, अतः सरितः सरांसि च नवाम्बसा पूर्णानि भवन्ति. अग्रिमवाक्यं भगिनि.
बालाः वृष्टिजले महता उत्साहेन क्रीडारताः भवन्ति. लघुवाक्यं तु बालाः भवन्ति. बालाः भवन्ति, बालाः क्रीडारताः भवन्ति. इत्युक्ते विशेषण अस्ति बालाः क्रीडारताः. समान रूपम् अस्ति.
विशेषणं क्रीडारताः, क्रीडामग्नाः, क्रीडामग्नाः इति अर्थे
रताः, यथा भारत रथ समानेव क्रीडारताः भवन्ति. उत्साहेन क्रीडारताः भवन्ति तृतीय अस्ति अत्र. उत्साहेन क्रीडारताः भवन्ति. वृष्टिजले महता उत्साहेन, वृष्टिजले तु सप्तमी.
हा, तत्र कुत्र कुत्र भवन्ति ते सर्वे? वृष्टिजले, वृष्टिजले क्रीडारताः,
वृष्टिजले भवन्ति. वृष्टिजले कथं कीदृश भवन्ति? महता उत्साहेन क्रीडारताः भवन्ति.
हा, तत्र इदानीं प्रश्नः, तत्र महता उत्साहेन इति अस्ति,
महता अपि तृतीया, उत्साहेन अपि तृतीया.
हा, किमर्थं?
द्वे द्वे महता तु विशेषण अस्ति.
हा, समीचीनं, महता विशेषणमस्ति उत्साहेन इति. समीचीनं भगिनि. इदानीं तत्र प्रथमविभक्तिरूपं वदतु तत्र.
इत्युक्ते बालः
न न केवलं तत्र महता उत्साहेन इति पदद्वयं तृतीयविभक्तौ अस्ति.
महत् उत्साहः.
हा, अस्तु, उत्साहः इति समीचीनं पुल्लिङ्गपदम्. अतः महत् इति प्रातिपदिकं यथा भवत् इति, किन्तु प्रथमविभक्तौ किं भवति? महान्. तावदेव.
महान् उत्साहः, अपि च महती.
तत्र यदि महत् स्त्रीलिङ्गे किमपि अस्ति चेत् तत्र महती तत्र मुद् अथवा तत्र अस्तु समीचीनं भगिनि महत उत्साहेन महान् उत्साहः
समीचीनं भगिनि
समीचीनं भगिनि अस्तु अग्रे लक्ष्मी भगिनी धन्यवादः भगिनि अस्तु लक्ष्मी भगिनी अग्रे
श्रोतुं शक्यते महोदय
शृणोमि भगिनि श्रूयते
यदा आकाशे इन्द्रधनुः प्रत्यक्षं भवति तदा तेषां चक्षुंषि प्रकाशितानि भवन्ति
तत्र यदा इति एकं एकं भागं तत् प्रथमतया वदतु यदा किं भवति
आकाशे इन्द्रधनुः भवन्ति नपुंसकलिङ्गपदं धनुष् शब्दस्य
समीचीनं भगिनि धनुष् षकारान्तपदम् इन्द्रधनुः इन्द्रधनुः प्रत्यक्षं भवति
तदा
तत्र इदानीं तत्र
इन्द्रधनुः
इति दृष्ट्वा सत्यं सत्यं किन्तु इन्द्रधनुः इति दृष्ट्वा तत्र लिङ्गं किम् इति प्रश्नः भवति चेत् तत्र केवलं तत्र वाक्यं दृष्ट्वा वक्तुं शक्नुमः वा आकाशे इन्द्रधनुः प्रत्यक्षं भवति इति तद्दृष्ट्वा लिङ्गं किम् इति वक्तुं शक्नुमः वा आकाशे इन्द्रधनुः प्रत्यक्षं भवति इति वाक्यं दृष्ट्वा किमर्थं नपुंसकलिङ्गम् इति ज्ञातुं शक्नुमः यदि नूतनपदम् अस्ति चेत् तत्र इन्द्रधनुः इति पूर्वं वयं न दृष्टवन्तः इति चिन्तयतु तस्मिन् समये तत्र केवलं वाक्यं दृष्ट्वा समीचीनं वाक्यम् एतत् इति चिन्तयित्वा तत्र आकाशे इन्द्रधनुः प्रत्यक्षं भवति इति दृष्ट्वा वक्तुं शक्नुमः वा लिङ्गं किम् इति तत्र इन्द्रधनुः इति कर्तृपदं क्रियापदं किम् भवति इन्द्रधनुः भवति कुत्र भवति इन्द्रधनुः आकाशे भवति कीदृशम् इन्द्रधनुः अथवा तत्र अन्यत् पदम् अस्ति वा वाक्ये प्रत्यक्षं भवति प्रत्यक्षम् इति पदस्य लिङ्गं किं भवितुम् अर्हति प्रत्यक्षं भवति नपुंसकलिङ्गपदम् अपि विभक्तिका
विभक्ति
एकवचनमेव भवति इति अकर्मकधातुः अतः प्रत्यक्षम् एकवचनम् अपि तत्र सम्बन्धः अस्ति वा इन्द्रधनुः प्रत्यक्षम् इति तयोः
इन्द्रधनुः प्रत्यक्षं भवति
विशेषणं
एकवचनं
प्रत्यक्षं विशेषणम् अस्ति इन्द्रधनुः विशेष्यम् अस्ति अतः इन्द्रधनुः अपि नपुंसकलिङ्गपदम् इति अतः यदा आकाशे इन्द्रधनुः प्रत्यक्षं भवति इदानीं तत्र इन्द्रधनुः प्रत्यक्षं भवति इदानीं तत्र द्विवचने किं रूपं किं भवति तत्र आकाशे इन्द्रधनुषि
प्रत्यक्षे
भवतः तत्र कुत्रचित् तदपि भवति खलु तत्र धनुषि तत्र द्वयं भवति खलु इन्द्रधनुद्वयं तत्र कुत्रापि अस्ति गोकर्ण तत्र समीपे अहम् एकं स्थलम् अस्ति न स्मरामि इदानीं किन्तु तत्र इन्द्रधनुद्वयं भवति अतः तत्र धनुषि इति इन्द्रधनुषि प्रत्यक्षे भवतः बहुवचने केवलम् अभ्यासार्थं वदामः किं भवति धनुंषि इन्द्रधनुषि
प्रत्यक्षाणि भवन्ति
इति समीचीनं भगिनि तदा किं भवति
तदा तेषां चक्षुंषि प्रकाशितानि भवन्ति
इदानीं पुनः तत्र चक्षुंषि इति दृष्ट्वा लिङ्गं किम् इति वक्तुं शक्नुमः वा
चक्षुंषि
केवलं तत्र वाक्यं दृष्ट्वा चक्षुंषि भवन्ति शकारान्तपदं, किन्तु लिङ्गं नपुंसकलिङ्गपदं वा किं?
नपुंसकलिङ्गं
किमर्थम् तत्र? पुनः तत्र विशेषणम् अस्ति, तत्र प्रकाशितानि, हा प्रकाशितानि कीदृशानि चक्षुंषि? प्रकाशितानि चक्षुंषि. केषां चक्षुंषि इदानीं?
तेषां.
तेषाम् इत्युक्ते केषां?
बालानां.
हा बालानां चक्षुंषि, तेषां बालानां ये क्रीडारताः सन्ति तेषाम्. इदानीं तत्र क्रीडारताः बालाः इति उपयुज्य तत्र तस्य षष्टिः वदतु. बालाः इति पदस्य षष्टिः किं? बालानां क्रीडारताः तस्य षष्टिः क्रीडारतानां तेषां क्रीडारतानां बालानां चक्षुंषि प्रकाशितानि भवन्ति. समीचीनं भगिनि. हा अग्रे
महोदय प्रश्नः. महोदय
प्रत्यक्षम्
इति नपुंसकलिङ्गे अस्ति इति भवान् उक्तवान्, प्र उपसर्ग अस्ति वा तत्र महोदय अथवा समस्तपदं?
नामपदम् अस्ति भगिनि प्रत्यक्षं,
नाम उपसर्ग नास्ति.
उपसर्ग इति तत्र
प्रत्यक्षं
तत्र धातो मध्ये भवति, किन्तु इदानीम् अत्र नामपदम् अस्ति.
विशेषणमपि भवितुम् अर्हति महोदय.
विशेषणमेव, विशेषणमेव प्रत्यक्षम् इति विशेषणम्. हा अतः इन्द्रधनुः कीदृशम् इन्द्रधनुः? प्रत्यक्षम् इन्द्रधनुः. अतः तत्र द्रष्टुं शक्नुमः प्रत्यक्षम् अस्ति. हा तत्र चक्षुषा तस्य दर्शनं भवति, अतः तत्र प्रत्यक्षम् अस्ति. इन्द्रियैः ग्रहीतुं शक्नुमः तत्र इन्द्रधनुः चक्षुषैः चक्षुषा ग्रहीतुं शक्नुमः. अस्तु तत्र पततु भगिनि. हा मनांसि
च हर्षेण प्रफुल्लानि भवन्ति.
हा पुनः तत्र भवन्ति इति अस्ति,
प्रफुल्लानि भवन्ति.
प्रफुल्लानि इति किम् अस्ति? विशेषणम् अस्ति. कस्य पदस्य?
कानि? मनांसि.
हा मनांसि, मनः मनसि, मनांसि सकारान्त मनशब्दः. इदानीं तत्र मनांसि कीदृशानि सन्ति? प्रफुल्लानि, पूर्णानि. हा पूर्णानि इति केवलं पूर्णानि न, किन्तु पूर्णस्य अधिकं प्रफुल्लानि भवन्ति. केन प्रफुल्लानि, केन पूर्णानि भवन्ति? पूर्वं तत्र सरितः सरांसि च नभाम्बसा पूर्णानि भवन्ति इति आसीत्. अत्र केन प्रफुल्लानि भवन्ति?
हर्षेण.
हा हर्षेण प्रफुल्लानि भवन्ति मनांसि. इदानीं तत्र मनांसि च हर्षेण प्रफुल्लानि भवन्ति इति अस्ति, तत्र एकवचने वदतु तत्र किं भवति?
मनः हर्षेण प्रफुल्लं भवति.
हा इति समीचीनं भगिनि. हा समीचीनं. हा तावदेव. अस्तु समीचीनं भगिनि. अस्तु अग्रे तत्र हा शोभा भगिनी अग्रे पठति वा?
आम् महोदय. तत्र परम् इति
कृषकाः,
कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति. कृषकाः तत्र क्षेत्राणि कृष्ट्वा बीजानि वपन्ति.
तत्र बीजानि स्थापयन्ति क्षेत्रेषु. तत्र कृष्ट्वा इति अस्ति त्वान्तरूपम्, अतः क्षेत्राणि इति पदस्य विभक्ति का तत्र?
तत्र क्षेत्राणि द्वितीया भवति.
द्वितीया. हा यतोहि तत्र नपुंसकलिङ्गपदं, किन्तु विभक्ति तु द्वितीया.
द्वितीया.
अपि बीजानि
कृषकाः वपन्ति बीजानि वपन्ति
बीजानि वपन्ति इति समीचीनं भगिनि क्षेत्राणि कृष्ट्वा क्षेत्रेषु बीजानि वपन्ति
अपि च तत्र कृष्ट्वा इति कर्षति इत्यस्य स्वान्तपदं किल
सत्यं भगिनि
अपि च किमपि अन्यत् वक्तव्यमस्ति वा
तत्र अन्यत् किमपि नास्ति
क्रमेण सस्यसम्पद् वर्धते तत्र सस्यसम्पद् सम्पद् इति दकारान्त वर्धते इति दत्तं
सम्पत् सम्पत् इति स्त्रीलिङ्गपदं
स्त्रीलिङ्गपदम् अस्तु
आपद् विपद् सम्पत् परिषद्
परिषद् अपि अस्ति
सम्पत् सस्यानां सम्पद्
सस्यानां सम्पद् वर्धते तत्र समस्तपदं अन्ते सम्पद् अस्ति इति कृत्वा नपुंसकलिङ्गं भवति किल महोदय
स्त्रीलिङ्गपदं स्त्रीलिङ्गपदमेव तत्र सस्य तु नपुंसकलिङ्गे अस्ति किन्तु तत्र सस्यसम्पत् तु स्त्रीलिङ्गे एव अस्ति
स्त्रीलिङ्गे भवति अस्तु
तत्र एकवारं वदतु सस्यसम्पद् वर्धते बहुवचने किं भवति
सस्य तत्र आपद् अस्ति चेत् आपदः सस्यसम्पदः वर्धन्ते
इति तावदेव सस्यसम्पदः वर्धन्ते तत्र सस्यसम्पद् वर्धते क्रमेण वर्धते क्रमेण तत्र अद्य वृष्टिः अस्ति अग्रिमे दिने एव तत्र सस्यसम्पद् भवति इति न किन्तु क्रमेण तत्र वर्धनं भवति अतः तत्र सस्यसम्पद् वर्धते अग्रे
परं यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते तत्र परं यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते तत्र सञ्जायते क्रियापदं किं सञ्जायते इत्युक्ते विपद् सञ्जायते
तत्र यदा तदा इति अस्ति अतः भागद्वयम् अस्ति यदा किं भवति
यदा तत्र यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते
तत्र अतिवृष्टिः अतिवृष्टिः इत्युक्ते तत्र
अधिकवृष्टिः भवति अधिकावृष्टिः भवति
तदा
अतः अत्र महती भवति तदा महती विपद् इति विपद् इति स्त्रीलिङ्गे अस्ति इति कृत्वा महती इति
महती विपत् समीचीनम् इदानीं तत्र महती विपत् सञ्जायते तत्र बहुवचने रूपं किं भवति
विपद् विपदः सञ्जायते अस्ति चेत् जायते जायन्ते वा सञ्जायन्ते वा
सत्यं समीचीनं वर्धते वर्धेते वर्धन्ते जायते जायेते जायन्ते सञ्जायन्ते इदानीं तत्र महती इति
किं महोदय
महती इति तत्र बहुवचनं महती
महती इति एकवचने सप्तमी विभक्ति महती एकनिमिषं महोदय
महती इति विभक्ति का तत्र
महती एकवचने
न भगिनि तत्र न तत्र
क्षमतां महती स्त्रीलिङ्गे महती इति तु
नदी शब्दवत्
अस्तु महती नदी नद्यो नद्यः
अतः
महती महत्यो महत्यः महत्यः विपदः सञ्जायन्ते
इति समीचीनं भगिनि तत्र पूर्वं वयं दृष्टवन्तः खलु तत्र महान् उत्साहः इति आसीत् तत्र महान् उत्साहः तत् महता उत्साहेन इति तृतीया मध्ये अभवत् इदानीं तत्र महती विपद् तत्र महान् इति तत्र बहु विपद् इति अर्थे तत्र महती विपद् इदानीं तत्र महत्यः विपदः
सञ्जायते
केवलम् अभ्यासार्थं तत्र तृतीया एकवचने किं भवति
किं महोदय
तृतीया एकवचने महती विपद् इति
नदी नद्या महत्या विपद् इत्यस्य अस्तु विपदा महत्या
तत्र तत्र सर्वदा भवत् शब्दस्य रूपं स्मर्तव्यं भवता भवते भवतः भवतः भवति
आं महोदय तत्र
महत्या
विपदा
किमपि भवति समीचीनं भगिनि अस्तु अग्रे
अग्रे सरितां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमग्नानि भवन्ति
तत्र भवन्ति इति क्रियापदं तत्र कर्तृपदं किम् अस्ति
तत्र किं भवन्ति सरितां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमग्नानि भवन्ति
अतः कर्तृपदं किं भवन्ति इति क्रियापदं कर्तृपदं
निमग्नानि भवन्ति किल
गृहाणि 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 भवन्ति
भवन्ति अस्तु
गृहाणि भवन्ति गृहाणि गृहाणि
कीदृशानि लघूनि गृहाणि
लघूनि गृहाणि तत्र कुत्र सन्ति एतानि गृहाणि
सरितां तीरेषु सरितां तीरेषु विद्यमानानि लघूनि गृहाणि भवन्ति
तत्र सरितां तीरेषु तत्र तीरेषु इति सप्तमी
सप्तमी नद्याः तीरेषु
नद्याः समीचीनं भगिनि सरित् सरितां किन्तु सरिताम् इति षष्टि एव किन्तु सरितां नद्याः इति अपि षष्टि सरितामपि षष्टि किन्तु तत्र एकः भेदः अस्ति सरिताम् इति षष्टि अस्ति नद्याः अपि षष्टि किन्तु नद्याः इति वचनं किम्
नद्याः इति
एकवचनं षष्टि एकवचनं सरिताम् इति
बहुवचने अस्ति अतः अपि बहुवचने अस्ति
किं भगिनि
तीरेषु
तीरेषु तीरेषु
तीरेषु इति बहुवचने अस्ति
केषां तीरेषु
अतः सरितां बहुवचने
तत्र कासां तीरेषु सरितां
सरितां तीरेषु तत्र विशेष्य न
विशेषभावः नास्ति तत्र तीरम् तत्र अनेक तत्र तीरेषु इति बहुवचने अस्ति अतः तत्र प्रायशः तत्र अत्र अस्तु
विभक्ति अपि वचनस्य तुलनम्
अस्तु अत्र द्वयमपि बहुवचनम् अस्तु इदानीं तत्र सरितां तीरेषु विद्यमानानि तत्र विद्यमानानि इत्युक्ते तत्र
विद्यमानानि इत्युक्ते तत्र
सन्ति
अर्थं जानामि किन्तु तत् पदं
तत्र तत्र अग्रे अग्रे तत्र
विद्यमाना इति तत्र विद्यमानानि इति बहुवचने अपि च नपुंसकलिङ्गे विद्यमानानि
तत्र यदस्ति इति अथवा यानि सन्ति इति तीरेषु यानि लघूनि गृहाणि सन्ति ते सर्वे
तत्र वर्तमानानि इति अपि पर्यायवाचकं
सत्यं वर्तते वर्तमानः इति
वर्तमानः अपि भवितुम् अर्हति किल
अर्हति विशेषणम् अस्ति वार्ता वर्तमाना वार्ता इति
अपि च
तत्र किं भवन्ति एतानि लघूनि गृहाणि ये यानि सरितां तीरेषु विद्यमानानि अथवा सन्ति ते
निमग्नानि भवन्ति
जले
निमग्नानि
भवन्ति यतोहि ते तु ते इति न तानि तु तीरेषु सन्ति यदि तत्र अतिवृष्टिः भवति किं भवति तत्र अतिवृष्टिः अस्ति चेत् तत्र
जलमस्ति तत्र फ्लड् इति
निमग्नानि इत्युक्ते जलस्य अन्ते गच्छन्ति इति तत्र जलम् उपरि आगच्छति
अस्ति किल तस्य नि उपसर्गपूर्वकपदं वा महोदय मग्नः इत्युक्ते एकम् अर्थम् अस्ति तस्य
समानार्थकः इति मन्ये भगिनि निमग्नः
अस्तु, जले
जले निमग्नः, जले जले निमग्नानि, तत्र
जलेन पूरितानि,
जलेन पूरितानि न, पूरितम् इत्युक्ते तत्र जलेन पूरितं जलम् अन्ते अस्ति, यतः तत्र घटः जलेन पूरितः भवति, किन्तु अत्र तु जल जले मग्नम् अस्ति एतत् गृहम्, अतः तत्र पूरितम् इत्युक्ते केवलम् अन्ते अस्ति इति भवति, किन्तु अन्ते अस्ति बहिः अपि अस्ति, अतः
गृहाणि जले एव सन्ति
सन्ति, अतः निमग्नानि भवन्ति. अस्तु, समीचीनं भगिनी. अस्तु अग्रे तत्र वेदा भगिनी अग्रे पठति वा.
महोदय, पशुपक्षिणः लघवः प्राणिनः च म्रियन्ते, म्रियन्ते बहुवचनं म्रियन्ते, तत्र क्रियापदं म्रियन्ते, पशुपक्षिणः बहुवचनमस्ति, पशु पशुपक्षी पक्षिणौ पक्षिणः वा.
हा, पशुपक्षिणः,
परन्तु तत्र पुल्लिङ्गपदं नास्ति वा पशुपक्षिणः.
अहं चिन्तयामि पक्षी इति पुल्लिङ्गपदमेव अस्ति इति मन्ये भगिनी.
पशुपक्षी
किमर्थं तत्र, किमर्थं तत्र स्थूलक्षरे दत्तम् इति न जानामि. प्राणी अपि तत्र
प्राणी अपि पुल्लिङ्गपदमेव.
हा, लघवः इति दत्तम् अस्ति खलु, अतः तत्र
लघु लघवः पदस्य
सत्यं सत्यं. हा, तत्र एकवचने किमस्ति पशुपक्षिणः इति, तत्र पक्षी
पशु
नकारन्त पक्षिन् इति नकारन्तपदं
लघुः,
अपि प्राणी अपि तत्र प्राणीन्, यस्मिन् प्राणः अस्ति सः प्राणी,
प्राणी लघुः पशुपक्षी लघुः प्राणी प्राणी च म्रियते
तत्र. अस्तु, समीचीनम्. अस्तु, प्राणिनः म्रियन्ते, कीदृशाः प्राणिनः, लघवः प्राणिनः अपि पशुपक्षिणः अपि म्रियन्ते तत्र, यस्मात् कारणात् अतिवृष्टेः कारणात्
पशुपक्षिणः लघवः प्राणिनः च म्रियन्ते
एवमेव
तेन मृत्यु भवन्ति,
मृत्युं प्राप्नुवन्ति कस्मात् कारणात् पुनः अतिवृष्ट्याः इति. अस्तु, समीचीनम्. अतिवृष्ट्याः कारणात् समीचीनं भगिनि. इदानीम् अग्रे वदतु भगिनि.
पक्षिन् इति शब्दः अस्ति किल, नपुंसकलिङ्गं किल,
पक्षिन् इति नपुंसकलिङ्गम् अथवा पुल्लिङ्गम् इति प्राणिन्
नपुंसकम् अस्ति चेत् बहुवचनं पक्षिणानि
पक्षिणः भवति, षष्ठी विभक्ति पक्षिणः भवति,
गुणिवत् भवति, तत्र षष्ठी न, तत्र प्रथम
बहुवचनं, तत्र म्रियन्ते इति क्रियापदं, म्रियन्ते इति क्रियापदं, कर्तृपदम् अस्ति प्राणिनः अथवा पशुपक्षिणः,
तत्र
स्थूलक्षरैः दत्तं, तत्र क्लेशः भवति, तत्र स्त्रीलिङ्गपदं नास्ति, नपुंसकलिङ्गपदमपि नास्ति, पक्षिन् सत्यं भगिनि, न हलन्तपदम् एव,
इति अपि स्त्रीलिङ्गे अस्ति, किन्तु पक्षिणः तु न भवति.
पक्षिणी अस्ति चेत् तत्र पक्षिण्यः अपि अजन्तपदम् अस्ति.
महोदय, तत्र किमर्थं षष्ठी विभक्ति दत्तवान् इति मम प्रश्नः.
न दत्तवान्, न दत्तमस्ति भगिनि, षष्ठी न दत्तमस्ति, तत्र म्रियन्ते इति अस्ति क्रियापदं खलु वाक्ये, म्रियन्ते इति क्रियापदमस्ति, कर्तृपदं किम् अस्ति अस्मिन् वाक्ये, प्रथमविभक्ति बहुवचनमेव,
पक्षी पक्षिणौ पक्षिणः वा,
सत्यं सत्यम्.
ओ अस्तु,
अपि प्राणी अपि समानं, प्राणी प्राणिनौ प्राणिनः,
तर्हि नकारान्तपदं नास्ति वा तत्र,
नकारान्तपदमेव
हलन्तपदम्,
नकारान्त पुल्लिङ्गपदम् अस्ति किन्तु
पुल्लिङ्गपदम् अस्ति ओ नपुंसकं तु भिन्नम् अस्ति किल अस्तु महोदय
तत्र कर्मणि इति नास्ति कर्म कर्मणि कर्माणि इति नास्ति अतः किन्तु तत्र क्लेशः भवितुम् अर्हति भगिनि यतोहि तत्र स्थूलक्षरैः दत्तमस्ति किन्तु अपि तत्र पूर्वम् उक्तम् उपरि उक्तमस्ति तत्र हलन्तस्त्रीलिङ्ग नपुंसकलिङ्गशब्दाः किन्तु तत्र पुल्लिङ्गम् एव अस्ति अस्तु अन्यप्रश्नः
पाठिनः द्वे अपि
पुल्लिङ्गपदं
हलन्तपुल्लिङ्गपदमस्ति प्रथम एकवचन पक्षी
दीर्घ अस्ति दीर्घ अस्ति पक्षी इति
पक्षी अस्ति
योगी यथा योगी
गुणिनः
अस्तु वेदभगिनी अग्रे
एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति एवमेव
किमर्थम् एवमेव इति दत्तमस्ति
एवमेव यदा अतिवृष्टि भवति तदा
समीचीनं यथा अतिवृष्ट्या आपदः भवति
तदेव
अनावृष्ट्या अपि आपदः सम्भवन्ति आपदः सम्भवन्ति अतिवृष्ट्या अनावृष्ट्यापि आपदः सम्भवन्ति अनावृष्टिः इत्युक्ते न्यूना अस्ति बहु न्यूना अस्ति वृष्टिः यत्र न्यूना अस्ति अथवा नास्ति एव तत्र अनावृष्टिः इति समीचीनम्
आपदः बहुवचनमस्ति तदेव सम्भवन्ति आपदौ आपदः तदा जलस्य अभावेन सरितः शुष्यन्ति तदा अनावृष्ट्या भवति चेत् तदा जलस्य अभावः भवति जलस्य अभावेन सरितः शुष्यन्ति सरितः बहुवचनं सरित् शब्दस्य बहुवचनं सरितः शुष्यन्ति
समीचीनं सरितः
शुष्यन्ति इत्युक्ते ड्रै समानपदं किमं वदति शुष्यन्ति इत्युक्ते किं
वक्तम् इच्छति निर्जलं निर्जलम् अस्तु
निर्जलं भवन्ति
अस्तु समीचीनं भगिनि अस्तु किं भगिनि
म्लायते एव
अस्तु तत्र बहुवचने किमस्ति अस्तु समीचीनम् अस्तु वृक्षाः वेदभगिनी अग्रे वृक्षाः
विनश्यन्ति
वृक्षाः
नाशनं भवति
किमर्थं कस्मात् कारणात्
अनावृष्ट्या कारणेन
अनावृष्ट्या वृक्षाः अपि विनश्यन्ति अस्तु अस्तु तर्हि तत्र एतावत् तत्र प्रायशः तत्र सुजाता भगिनी न उक्तवती पठितवती उषा भगिनी न पठितवती अन्य कोऽपि मधु महोदय अपि इति मन्ये अस्तु
अहमपि
शुभदा भगिनी भवती अपि अस्तु अस्तु तर्हि अस्तु तत्र वाक्यद्वयं वाक्यत्रयं स्वीकृत्य पठामः अस्तु प्रथमतया उषा भगिनी पठति वा तत्र
आम् कृषिकर्म असाध्यं भवति
कृषिकर्म इति इदानीं तत्र लिङ्गं किं
कर्मन्
कृषिकर्म असाध्यं भवति इदानीं तत्र द्विवचने बहुवचने वदतु किं किं
कर्मन् कर्मणि कर्माणि कृषिकर्म असाध्यं भवति कृषिकर्मणि असाध्यं
असाध्यम् इति विशेषणम् अस्ति अतः इदानीं
कृषिकर्माणि असाध्यं भवन्ति
भवन्ति समीचीनं भगिनि किन्तु कृषिकर्म कीदृशं कृषिकर्म असाध्यं इदानीम् असाध्यम् इति पदस्य द्विवचन बहुवचनरूपं
असाध्यं फलम् इति अस्ति च असाध्यम् असाध्ये असाध्यानि
हा इदानीं वदतु कृषिकर्मणि
असाध्यं भवति कर्म कर्मणि कृषिकर्मणि असाध्ये भवतः कृषिकर्मणि
कर्माणि कृषिकर्माणि
कृषिकर्माणि
असाध्यानि
फलं फले फलानि असाध्यानि भवन्ति
हा इति समीचीनं भगिनि हा अग्रे
कृषिं विना धान्योत्पत्तिः एव न भवति धान्यस्य उत्पत्तिः एव न भवति
खलु तत्र कृषिः तत्र कृषिकार्यं नास्ति चेत् यदि कृषकाः तेषां
कार्यं
न कर्तुं शक्नुवन्ति चेत् तत्र
धान्योत्पत्तिः भवति
न भवति न भवति एव धान्योत्पत्तिः एव न भवति अतः धान्यं तत्र धान्योत्पत्तिः न भवति
धान्यस्य उत्पत्तिः न महोदय
हा इति धान्यस्य उत्पत्तिः अथवा धान्यानाम् उत्पत्तिः एव न
भवति
उत्पत्तिः इति मतिशब्दवत् स्त्रीलिङ्गपदम् इति मन्ये अग्रे
प्राणधार
अत्र कृषिं विना इति स्थाने कृषिः तत्र कृषिं विना तत्र किमर्थं कृषिम् इति अस्ति
कर्मपदं
न न कर्मपदं न भवति इति क्रियापदं विना इति अस्ति अतः कृषिं हा उपपदविभक्तिः खलु हा विना इति अस्ति इति हा अग्रे
धान्योत्पत्तिः एव न भवति प्राणधारणवस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति
हा जनाः किम् अनुभवन्ति
क्लेशम् अनुभवन्ति
क्लेशम् अनुभवन्ति क्लेशम् इति कर्मपदं क्लेशम् अनुभवन्ति तत्र के कस्य अभावेन
प्राणधारण
वस्तूनां वस्तूनि नपुंसकलिङ्गपदं हा नपुंसकलिङ्गपदं किन्तु अजन्तनपुंसकलिङ्गपदं कीदृशवस्तु वस्तूनि
प्राणधारण
हा कीदृशानि वस्तूनि तत्र प्राणधारण प्राणपोषक प्राणपोषक अथवा प्राणधारक प्राणधारणवस्तूनां प्राणधारणवस्तूनाम् इत्युक्ते तत्र धान्यम् एतादृशानि वस्तूनि तत्र यदि न सन्ति तत्र किं भवति क्लेशः
जनाः क्लेशम् अनुभवन्ति
हा अन्त तत्र क्रमशः
कष्टम् अनुभवन्ति
हा क्रमशः
क्रमशः जीवनम् एव दुस्सहं भवति
हा क्रमशः जीवनमेव
जीवनमेव
दुःसहं भवति समीचीनं भगिनि अस्तु शुभदा भगिनि तत्र वाक्यद्वयम् अथवा प्रथमवाक्यमेव दीर्घमस्ति अस्तु
अतिवृष्टेः अनावृष्टेः च मूलं मानवः एव
हा मानवः एव मूलम्
अस्ति
अस्ति कस्य मूलम्
अतिवृष्टेः अपि च अनावृष्टेः
अतः तत्र वृष्टेः षष्टिविभक्ति
षष्टिविभक्ति अस्ति
मानवः एव
मानवः एव घनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति
तत्र भवति इति क्रियापदं तत्र किं भवति कर्तृपदं
पर्यावरणं
हा पर्यावरणं
भवति
पर्यावरणं भवति कीदृशं भवति पर्यावरणम्
असन्तुलितं भवति
हा तत्र
असन्तुलितम् इति विशेषणं पर्यावरणम् इति शब्दस्य
हा तत्र पर्यावरणम् असन्तुलितं भीषणं भवति केन कारणेन
घनविपिनानाम् अनियन्त्रितनाशनेन
हा
अनियन्त्रितनाशनेन
हा तत्र नाशनेन तत्र घनविपिनानां विपिनम् इत्युक्ते तेषाम्
अरण्यम् अरण्यमिति
अरण्यं हा घन अरण्यं घनम् इत्युक्ते तत्र अनेकाः वृक्षाः सन्ति, अनेके वृक्षाः सन्ति इति.
घोरः अरण्यम् इति घोरः
इति प्रायशः अन्यः अर्थः भवति, किन्तु तत्र पूर्णम् अस्ति, तत्र वृक्षैः पूर्णं वनम् इति. किन्तु तेषां किं नाशनं, कीदृशनाशनं? नियन्त्रित न, अनियन्त्रित. तत्र अनियन्त्रितनाशनेन तत्र हा असन्तुलितः असन्तुलितं भवति. अस्तु, हा समीचीनं भगिनि. अस्तु, अद्य तावदेव. अस्तु, तत्र सुजाता भगिनि केवलम् एकं वाक्यं पठितुम् इच्छति वा, तत्र वक्तुम् इच्छति वा? तत्र
यन्त्राकारेभ्यः निःसरतां विषमय पदार्थानां मेलनेन जलस्रोतांसि प्रदूषितानि भवन्ति.
अस्तु, तत्र अस्तु, एतत् तत्र किञ्चिदेव अस्ति, किन्तु तत् अग्रिमे वर्गे एतत् कुर्मः, यतोहि तत्र किम् अस्ति. तत्र धन्यवादः भगिनि, यतोहि तत्र षोडशे पुटे तत्र प्रश्नाः सन्ति, अतः उत्तराणि अपि उत्तरम् आवश्यकम् अस्ति इति कृत्वा तत्र अग्रिमे वर्गे किञ्चित् एकवारं पठित्वा तत्र उत्तरमपि कुर्मः. अस्तु, तर्हि तत्र अद्य तत्र अस्तु, अस्तु, गीताञ्जलि भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि?
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ सर्वं कृष्णार्पणमस्तु. हरिः ॐ. धन्यवादः.